ராஜ்யம் தசதஹஸ்ராணி ப்ராப்ய வர்ஷாணி ராகவஹ சதாஸ்வமேதானா சக்ரே ததஸ்வான் பூரி தக்ஷிணான் ஆஜானுலம்ப பாஹுஸ்த மஹாஸ்கந்த பிரதாபவான் லக்ஷ்மணானுஜரோ ராம பிருத்திவீ மன்மபாலயத் ராகவஶ்சாபி தர்மாத்மா ப்ராப்ய ராஜ்யமனுத்தமம் ஈஜே பஹுவிதைர்யஜ்ஞை சசுஹ்ருத் ஜ்ஞாதி பாந்தவைஹ ந பர்யதேவன் விதவா நச வ்யாலகதம் பயம் ந வ்யாதிஜம் பயம் வாபி ராமே ராஜ்யம் பிரசாசதி நிர்தச்சுரபவல்லோகோ நானர்த்தஃ கஞ்சிதஸ்பிருஷத் ந சஸ்வவ்ருத்தா பாலானாம் ப்ரேத காரியாணி குர்வதே சர்வம் முதிதமேவாசீத் சர்வோ தர்மபரோ பவத் ராமமேவானு பஷ்யந்தோ நாப்யஹிம்சன் பரஸ்பரம் ஆசன் வருஷதஹஸ்ராணி ததா புத்ரஸஹஸ்ரிணஃ நிராமயா விசோகாஶ்ச ராமே ராஜ்யம் பிரசாசதி ராமோ ராமோ ராமயிதி ப்ரஜாநாமபவன் கதாஃ ராமபூதம் ஜகதபூத் ராமே ராஜ்யம் பிரசாசதி நித்ய புஷ்பா நித்ய ஃபலா சரவஸ்கந்த விஸ்ருதாஃ காலே வர்ஷீ ச பர்ஜன்யஃ சுகஸ்பர்ஷஶ்ச மாருதஃ ப்ராஹ்மணாஃ க்ஷத்ரியா வைஷ்யா சூத்ரா லோப விவர்ஜிதாஃ ஸ்வகர்மசு ப்ரவர்த்தந்தே துஷ்டா ஸ்வைரேவ கர்மபிஃ ஆசன் ப்ரஜா தர்மரதா ராமே சாஸதி நான்ருதாஃ சர்வே லக்ஷண சம்பன்னா சர்வே தர்ம பராயணாஃ தஶ வர்ஷ ஸஹஸ்ராணி தஶ வர்ஷ ஶதானி ச ப்ராத்ருபிஃ ஸஹித ஸ்ரீமான் ராமோ ராஜ்யமகாரயத் தன்யம் யஶஸ்ய மாயுஷ்யம் ராஜ்ஞாம் ச விஜயாவகம் ஆதிகாவ்யமிதம் த்வாரிஷாம் புரா வால்மீகினா க்ருதம் யஃ பட்டேத் ஸ்ருணுயாத் லோகே நரஃ பாபாத் விமுச்யதே புத்ரகாமஸ்து புத்ரான் வை தனகாமோ தனானி ச லபதே மனுஜோ லோகே ஸ்ருத்வா ராமாபிஷேசனம் மஹீம் விஜயதே ராஜா ரிபூம்ஷ்சாப்யதிதிஷ்டதி ராகவேண யதா மாதா சுமித்ரா லக்ஷ்மணேன ச பரதேன ச கைகேயீ ஜீவ புத்ராஸ்ததா ஸ்த்ரியஃ பவிஷ்யந்தி சதானந்தா புத்ர பௌத்ர சமன்விதாஃ ஸ்ருத்வா ராமாயணமிதம் தீர்க்கமாயுஷ்ச விந்ததி ராமஸ்ய விஜயம் சைவ சர்வமக்லிஷ்ட கர்மணஃ ஶ்ருணோதி யைதம் காவ்யமார்ஷம் வால்மீகினா க்ருதம் ஸ்ரத்ததானோதித க்ரோதோ துர்காண்யதிதரத்யஸௌ சமாகமம் ப்ரவாஸம் தே லபதே சாபி பாந்தவைஹ ப்ரார்த்திதாம்ஶ்ச வரான் சர்வான் ப்ராப்னுயாதிஹ ராகவாத் ஶ்ரவணேன சுராஸ் ஸர்வே ப்ரீயம் தே ஸம்ப்ரஷ்ருண்வதாம் விநாயகாஶ்ச சாம்யந்தி க்ருஹே திஷ்டந்தி யஸ்ய வை விஜயேத மஹீம் ராஜா ப்ரவாஸீ ஸ்வஸ்திவான் வ்ரஜேத் ஸ்ரியோ ரஜஸ்வலா ஸ்ருத்வா புத்ரான் சூயுரனுத்தமான் பூஜயம்ஶ்ச பட்சம்ஶ்சேமமிதிஹாஸம் புராதனம் சர்வ பாபைஃ ப்ரமுச்யேத தீர்க்கமாயுரவாப்னுயாத் ப்ரணம்ய சிரஸா நித்யம் ஸ்ரோதவ்யம் க்ஷத்ரியைர்த்விஜாத் ஐஸ்வர்யம் புத்ர லாபஶ்ச பவிஷ்யதி ந சம்சயஃ ராமாயணமிதம் க்ருத்ஸ்ரம் ஸ்ருண்வதஃ பததஃ ஸதா ப்ரீயதே சததம் ராமஸ் ஸஹி விஷ்ணுஸ் ஸநாதனஃ ஆதிதேவோ மஹாபாஹுர் ஹரிர்நாராயணஃ ப்ரபுஃ சாக்ஷாத் ராமோ ரகுஸ்ரேஷ்டஃ சேஷோ லக்ஷ்மண உச்யதே குடும்ப வ்ருத்திம் தனதான்ய வ்ருத்திம் ஸ்ரியஶ்ச முக்யா சுகமுத்தமம் ச ஸ்ருத்வா சுபம் காவ்யமிதம் மஹார்த்தம் ப்ராப்னோதி சர்வாம் புவிசார்த்த சித்திம் ஆயுஷ்யமாரோக்யகரம் யஶஸ்யம் சௌப்ராத்ருகம் புத்திகரம் சுபம் ச ஸ்ரோதவ்யமேதன்நியமேன சத்பிஹ ஆக்யானமோஜஸ்கர வ்ருத்திகாமைஹ ஏவமேதத் புரா வ்ருத்தமாக்யானம் பத்ரமஸ்து மஹ ப்ரவ்யாகரத விஸ்ரப்தம் பலம் விஷ்ணோஃ ப்ரவர்த்ததாம் தேவாஶ்ச சர்வே துஷ்யந்தி க்ரஹணாத் ஸ்ரவணாத் ததா ஓம் அத ஸ்ரீராமபட்டாபிஷேக சர்கஃ யுத்தகாண்டே ஏகத்ரிம்ஷதுத்தரசததமஃ சர்கஃ சிரஸ்யஞ்சலிமாதாய கைகேய்யானந்தவர்தனஃ பபாஷே பரதோ ஜ்யேஷ்டம் ராமம் சத்யபராக்ரமம் பூஜிதா மாமிகா மாதா தத்தம் ராஜ்யமிதம் மம தத்ததாமி புரஸ்துப்யம் யதா த்வமததா மம துரமேகாகினான்யத்தா மிருஷபேண பலீயசா கிஷோரீவ குரும் பாரம் நவோடுமஹமுத்ஸஹே வாரி வேகேன மஹதா பின்னஸ்தேதுரிவக்ஷரம் துர்பந்தனமிதம் வந்தே ராஜ்யச்சித்ரமசம்வ்ருதம் गतिम् खरयिवाश्वस्य हंसस्येव च वायसः नान्वेतुमुत्सहे राम तव मार्गमरिन्दम यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने महांश्च सुदुरारोहो महास्कन्ध प्रशाखवान् शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् तस्य नानुभवेदर्थम् यस्य हेतोः सरोप्यते येषोपवामहाबाहो त्वदर्थम् वेत्तुमर्हसि यद्यस्मान् मनुजेन्द्रत्वम् भक्तान् भृत्यान्न शाधिः जगदद्याभिषिक्तम् त्वामनुपश्यतु सर्वतः प्रतपन्तमिवादित्यम् मध्याह्ने दीप्ततेजसम् तूर्यसङ्घातनिर्घोषः काञ्चीनूपुरनिस्वनैः मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव यावदावर्तते चक्रम् यावती च वसुन्धरा तावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः तथेति प्रतिजग्राह निशसादासने शुभे ततः शत्रुघ्नवचनान् निपुणाश्मश्रुवर्धकाः सुखहस्तास्तु शीघ्राश्च राघवम् पर्युपासत पूर्वम् तु भरते स्नाते लक्ष्मणे च महाबले सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे विशोधितजटस्नातश्चित्रमाल्यानुलेपनः महार्घवसनो रामस्तस्थौ तत्र श्रियाज्वलन् प्रतिकर्म च रामस्य कारयामास वीर्यवान् लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ततो वानरपत्नीनाम् सर्वासामेव शोभनम् चकारयत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः योजयित्वाभिचक्रामरथम् सर्वाङ्गशोभनम् अर्कमण्डलसङ्काशम् दिव्यम् दृष्ट्वा रथोत्तमम् आरुरोहमहाबाहू रामः सत्यपराक्रमः सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ वराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः सुग्रीवपत्न्यः सीता च द्रष्टुम् नगरमुत्सुकाः अयोध्यायाम् तु सचिवा राज्ञो दशरथस्य ये पुरोहितम् पुरस्कृत्य मन्त्रयामासुरत्थवत् अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः मन्त्रयन्द्रामवृद्ध्यर्थमृद्ध्यर्थम् नगरस्य च सर्वमेवाभिषेकार्थम् जयार्हस्य महात्मनः कर्तुमर्हति रामस्य यद्यन्मङ्गलपूर्वकम् इति ते मन्त्रिणः सर्वे सन्दिश्यतु पुरोहितम् नगरान्निर्ययुस्तूर्णम् रामदर्शनबुद्धयः हरियुक्तम् सहस्राक्षो रथमिन्द्रजिवानघः प्रजयौ रथमास्थाय रामो नगरमुत्तमम् जग्राघभरतो रश्मीच्छत्रुघ्नश्छत्रवाददे लक्ष्मणो व्यजनम् तस्य मूर्ध्नि सम्पर्यवीजयत् श्वेतम् च वालव्यजनम् जग्राघपुरतः स्थितः अपरम् चन्द्रसङ्काशम् राक्षसेन्द्रो विभीषणः ऋषिसङ्घैस्तदाकाशे देवैश्च समरुद्गणैः स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ततः शत्रुञ्जयम् नाम कुञ्जरम् पर्वतोपमम् आरुरोगमहातेजाः सुग्रीवः प्लवगर्षभः नवनागसहस्राणि यजुरास्थाय वानराः मानुषम् विग्रहम् कृत्वा सर्वाभरणभूषिताः शङ्खशब्दप्रणादैश्च दुन्दुभीनाम् च निःस्वनैः प्रजयौ पुरुषव्याघ्रस्ताम् पुरीम् हर्म्यमालिनीम् ददृशुस्ते समायान्तम् राघवम् सपुरस्तरम् विराजमानम् वपुषा रथे नातिरथम् तदा ते वर्धयित्वा काकुत्स्थम् रामेण प्रतिनन्दिताः अनुजग्मुर्महात्मानम् भ्रातृभिः परिवारितम् अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः सपुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः प्रव्याघरद्भिर्मुदितैर्मङ्गलानि यजौ भृतः अक्षतम् जातरूपम् च गावः कन्यास्तथा द्विजाः न रामोदकहस्ताश्च रामस्य पुरतो ययुः सख्यम् च रामः सुग्रीवे प्रभावम् तानिलात्मजे वानराणाम् च तत्कर्म राक्षसानाम् च तद्बलम् विभीषणस्य संयोगमाचक्षे च मन्त्रिणाम् श्रुत्वा तु विस्मयम् जग्मुरयोध्या पुरवासिनः द्युतिमाने तदाख्याय रामो वानर संभृतः हृष्टपुष्ट जनाकीर्णामयोध्याम् प्राविवेशः ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे ऐक्ष्वाकाद्युचितम् रम्यमास सादपितुर्गृहम् अथाब्रवीद्राजपुत्रो भरतम् धर्मिणाम् वरम् अर्थोपहितया वाचा मधुरम् रघुनन्दनः पितुर्भवनमासाद्य प्रविश्य च महात्मनः कौसल्याम् च सुमित्राम् च कैकेयीमभिवादय यच्च मद्भवनम् श्रेष्ठम् साशोकवनिकम् महत् मुक्ता वैदूर्य सङ्कीर्णम् सुग्रीवाय निवेदय तस्य तद्वचनम् श्रुत्वा भरतः सत्यविक्रमः पाणौ गृहीत्वा सुग्रीवम् प्रविवेशतमालयम् ततस्तैरप्रदीपांश्च पर्यङ्कास्तरणानि च गृहीत्वा विविशुः क्षिप्रम् शत्रुघ्नेन प्रचोदिताः उवाच च महातेजः सुग्रीवम् राघवानुजः अभिषेकाय रामस्य दूतानाज्ञापय प्रभो सौवर्णान् वानरेन्द्राणाम् चतुर्णाम् चतुरोघटान् ददौ क्षिप्रम् च सुग्रीवः सर्वरत्नविभूषितान् यथा प्रत्यूषसमये चतुर्णाम् सागराम्भताम् पूर्णैर्घटैः प्रतीक्षध्वम् तथा कुरुत वानराः एवमुक्ता महात्मानो वानरावारणोपमाः उत्पेतुर्गगनम् शीघ्रम् गरुडानिलशीघ्रगाः जाम्बवांश्च सुषेणश्च वेगदर्शी स वानरः ऋषभश्चैव कलशाञ्जलपूर्णानथा नयन् नदीशतानाम् पञ्चानाम् जलम् कुम्भेषु चाहरन् पूर्वात् समुद्रात् कलशम् जलपूर्णमथानयत् सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ऋषभो दक्षिणान्तूर्णम् समुद्राज्जलमाहरत् रक्तचन्दनशाखाभिः सम्भृतम् काञ्चनम् घटम् गवयः पश्चिमात्तोयमाजगारमहार्णवात् रत्नकुम्भेन महता शीतम् मारुतविक्रमः उत्तराच्च जलम् शीघ्रम् गरुडानिलविक्रमः आजगारस धर्मात्मा नलः सर्वगुणान्वितः ततस्तैर्वानरश्रेष्ठैरानीतम् प्रेक्ष्य तज्जलम् अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ततः सप्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह रामम् रत्नमये पीठे सहासीतम् न्यवेशयत् वसिष्ठो वामदेवश्च जाबालिरथकाश्यपः कात्यायनस्तु यज्ञश्च गौतमो विजयस्तथा अभ्यषिञ्चन्न रव्याघ्रम् प्रसन्नेन सुगन्धिना सलिलेन सहस्राक्षम् वसवो वासवम् यथा ऋत्विग्भिर्ब्राह्मणैः पूर्वः कन्याभिर्मन्त्रिभिस्तथा योधैश्चैवाभ्यषिञ्चंस्ते सम्प्रकृष्टाः सनैगमैः सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ब्रह्मणा निर्मितम् पूर्वम् किरीटम् रत्नशोभितम् अभिषिक्तः पुराजेन मनुस्तम् दीप्ततेजसम् तस्यान्बवाये राजानः क्रमाद्येनाभिषेचिताः सभायाम् हेमक्लृप्तायाम् शोभितायाम् महाजनैः रत्नैर्नानाविधैश्चैव चित्रितायाम् सुशोभनैः नानारत्नमये पीठे कल्पजित्वा यथाविधि किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः छत्रम् तु तस्य जग्राह शत्रुघ्नः पाण्डरम् शुभम् श्वेतम् जवालव्यजनम् सुग्रीवो वानरेश्वरः अपरम् चन्द्र सङ्काशम् राक्षसेन्द्रो विभीषणः मालाम् ज्वलन्तीम् बभुषा काञ्चनीम् शतपुष्कराम् राघवाय ददौ वायुर्वासवेन प्रचोदितः सर्वरत्न समायुक्तम् मणिरत्न विभूषितम् मुक्ताहारम् नरेन्द्राय ददौ शक्र प्रचोदितः प्रजगुर्देव गन्धर्वा ननृतुश्चाप्सरोगणाः अभिषेके तदर्घस्य तदा रामस्य धीमतः भूमिः सस्यवती चैव फलवन्तश्च पादपाः गन्धवन्ति च पुष्पाणि बभूवु राघवोत्सवे सहस्रशतमश्वानाम् धेनूनाम् च गवाम् तथा ददौ शतम् वृषान् पूर्वम् द्विजेभ्यो मनुजर्षभः त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः नानाभरणवस्त्राणि महार्घाणि च राघवः అర్కరశ్మి ప్రతీకాశాం కాంచనీం మణివిగ్రహాం సుగ్రీవాయస్రజం దివ్యాం ప్రాయచ్ఛన్ మనుజర్షభః వైదూర్యమణి చిత్రే చ చంద్రరశ్మి విభూషితే వాలిపుత్రాయ ధృతిమానం గదాయాంగదే దదౌ మణిప్రవరచుష్టం చ ముక్తాహారమనుత్తమం సీతాజై ప్రదదౌ రామశ్చంద్రరశ్మి సమప్రభం అరజే వాసీ దివ్యే శుభాన్యాభరణాని చ అవేక్షమాణా వైదేహీ ప్రదదౌ వాయుసూనవే అవముచ్యాత్మనః కంఠద్వారం జనకనందినీ అవైక్షత హరీన్ సర్వాన్ భర్తారం చ ముహుర్ముహుః తామింగితజ్ఞః సంప్రేక్ష్య బభాషే జనకాత్మజాం ప్రదేహి సుభగేహారం యస్య తుష్టాది భామినీ తేజోధృతిర్యశోదాక్ష్యం సామర్థ్యం వినయోనయః పౌరుషం విక్రమో బుద్ధిర్యస్మిన్నేతాని నిత్యదా దదౌ సావాయుపుత్రాయ సంహారమసితేక్షణ హనుమాంస్తేన హారేణ శిశుభే వానరర్షభః చంద్రాంశుచయ గౌరేణ శ్వేతాభ్రేణ యథాచరః తతో ద్విధమైందాభ్యాం నీలాయ చ పదం తపః సర్వాన్ కామగుణాన్ వీక్ష్య ప్రదదౌ వసుధాధిపః సర్వే వానరవృద్ధాశ్చ యేచాన్యే వానరేశ్వరాః వాసోభిర్భూషణైశ్చైవ యథార్హం ప్రతిపూజితాః విభీషణోథ సుగ్రీవో హనుమాన్ జాంబవాంస్తథా సర్వే వానర ముఖ్యాశ్చ రామేణాక్లిష్టకర్మణా యథార్హం పూజితాః సర్వే కామైరత్నైశ్చ పుష్కలైః ప్రకృష్టమనసః సర్వే జగ్మురేవ యథాగతం నత్వా సర్వే మహాత్మానం తతస్తే ప్లవకర్షభాః విసృష్టాః పార్థివేంద్రేణ కిష్కింధామభ్యుపాగమన్ సుగ్రీవో వానరశ్రేష్ఠో దృష్ట్వా రామాభిషేచనం పూజితశ్చైవ రామేణ కిష్కింధాం ప్రావిశత్పురీం విభీషణోపి ధర్మాత్మా సహతైర్నైరుతర్షభైః లబ్ధ్వా కులధనం రాజా లంకాం ప్రాయాద్విభీషణః సరాజ్యమఖిలం శాసన్ నిషితారిర్మహాయశాః రాఘవః పరమోదారో రరాజ పరయా ముదా ఉవాచ లక్ష్మణం రామో ధర్మజ్ఞం ధర్మవత్సలః ఆతిష్ఠ ధర్మజ్ఞమయా సహే మాం పూర్వరాజాధ్యుషితాం బలేన తుల్యం మయా త్వం పితృభిర్ధృతాయ తాం యౌవరాజ్యే ధురముద్వహస్వ సర్వాత్మనా పర్యదునీయమాను యదానసౌ మిత్రి ఉపైతి యోగం నియుజ్యమానోపి చ యౌవరాజ్యే తతోభ్యషీచద్ భరతం మహాత్మా పౌండరీకాశ్వమేధాభ్యాం వాజపేయేన చాసకృత్ అంగైశ్చ వివిధైర్యజ్ఞైరయచత్ పార్థివాత్మజః రాజ్యం దశసహస్రాణి ప్రాప్య వర్షాణి రాఘవః శతాశ్వమేధానా చక్రే సదశ్వాన్ భూరి దక్షిణాన్ ఆజానులంబ బాహుస్స మహాస్కంధ ప్రతాపవాన్ లక్ష్మణానుచరో రామః పృథివీమన్వ పాలయత్ రాఘవశ్చాపి ధర్మాత్మా ప్రాప్య రాజ్యమనుత్తమం ఈజే బహువిధైర్యజ్ఞైః ససుహృజ్ఞాతి బాంధవైః న పర్యదేవన్ విధవా న చ వ్యాలకతం భయం న వ్యాధిజం భయం వాపి రామే రాజ్యం ప్రశాసతి నిర్దచ్యురభవల్లోకో నానర్థః కంచిదస్పృశత్ న చ స్వవృద్ధా బాలానాం ప్రేతకార్యాణి కుర్వతే సర్వం ముదితమేవాసీత్ సర్వో ధర్మపరోభవత్ రామమేవాను పశ్యంతో నాభ్యహింసన్ పరస్పరం ఆసన్ వర్షసహస్రాణి తథా పుత్రసహస్రిణః నిరామయా విశోకాశ్చ రామే రాజ్యం ప్రశాసతి రామో రామో రామయితి ప్రజానామభవన్ కథాః రామభూతం జగదభూద్రామే రాజ్యం ప్రశాసతి నిత్యపుష్పా నిత్యఫలాస్తరవస్కంధ విస్తృతాః కాలే వర్షీ చ పర్జన్యః సుఖస్పర్శశ్చ మారుతః బ్రాహ్మణాః క్షత్రియా వైశ్యా శూద్రాలోభ వివర్జితాః స్వకర్మసు ప్రవర్తంతే తుష్టా స్వైరేవ కర్మభిః ఆసన్ ప్రజాధర్మరత రామే శాసతి నాధృతాః సర్వే లక్షణ సంపన్నాః సర్వే ధర్మపరాయణాః దశ వర్షసహస్రాణి దశ వర్షశతాని చ భ్రాతృభిః సహిత శ్రీమాన్ రామో రాజ్యమకారయత్ ధన్యం యశస్యమాయుష్యం రాజ్ఞాం చ విజయావగం ఆదికావ్యమిదం త్వార్షాం పురా వాల్మీకినా కృతం యః పఠేత్ శృణుయాల్లోకే నరః పాపాద్ విముచ్యతే పుత్రకామస్తు పుత్రాన్ వై ధనకామో ధనాని చ లభతే మనుజో లోకే శ్రుత్వా రామాభిషేచనం महीम् विजयते राजा रिपुंश्चाप्यधितिष्ठति राघवेण यथा माता सुमित्रा लक्ष्मणेन च भरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः भविष्यन्ति सदानन्दाः पुत्रपौत्र समन्विताः श्रुत्वा रामायणमिदम् दीर्घमायुश्च विन्दति रामस्य विजयम् चैव सर्वमक्लिष्टकर्मणः शृणोति यैदम् काव्यमार्षम् वाल्मीकिना कृतम् श्रद्दधानोजितक्रोधो दुर्गाण्यतितरत्यसौ समागमम् प्रवासम् ते लभते चापि बान्धवैः प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् श्रवणेन सुराः सर्वे प्रीयम् ते सम्प्रशृण्वताम् विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै विजयेत महीम् राजा प्रवासी स्वस्तिवान् व्रजेत् स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् पूजयंश्च पठंश्चेममितिहासम् पुरातनम् सर्वपापैः प्रमुच्येत दीर्घमाजुरवाप्नुयात् प्रणम्य शिरसा नित्यम् श्रोतव्यम् क्षत्रियैर्द्विजात् ऐश्वर्यम् पुत्रलाभश्च भविष्यति न संशयः रामायणमिदम् कृत्स्नम् शृण्वतः पततः सदा प्रीयते सततम् रामः सहि विष्णुः सनातनः आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मणमुच्यते कुटुम्बवृद्धिम् धनधान्यवृद्धिम् स्त्रियश्च मुख्या सुखमुत्तमम् च श्रुत्वा शुभम् काव्यमिदम् महार्थम् प्राप्नोति सर्वाम् भुवि चार्थसिद्धिम् आयुष्यमारोग्यकरम् यशस्यम् सौभ्रातृकम् बुद्धिकरम् शुभम् च श्रोतव्यमेतन्नियमेन सद्भिः आख्यानमोजस्करवृद्धिकामैः एवमेतत्पुरावृत्तमाख्यानम् भद्रमस्तु मः प्रव्याहरत विस्रब्धम् बलम् विष्णोः प्रवर्धताम् देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा रामायणस्य श्रवणात् तुष्यन्ति पितरस्तथा भक्त्वा रामस्य ये चेमाम् संहिताम् ऋषिणा कृताम् लेखयन्तीह च नरास्तेषाम् वासस्त्रिविष्टपे इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायाम् संहितायाम् युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्याय्येन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी देशोऽयम् क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु जीवन्तु शरदाम् शतम् चरितम् रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् प्रोक्तम् महापातकनाशनम् शृण्वन् रामायणम् भक्त्या यः पादम् पदमेव वा स याति ब्रह्मणस्थानम् ब्रह्मणा पूज्यते सदा रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीतायाः पतये नमः एवमेतत्पुरावृत्तम् आख्यानम् भद्रमस्तु वः प्रव्याहरत विस्रब्धम् बलम् विष्णोः प्रवर्धताम् लाभस्तेषाम् जयस्तेषाम् कुतस्तेषाम् पराभवः येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः कावेरी वर्धताम् काले काले वर्षतु वासवः श्रीरङ्गनाथो जयतु श्रीरङ्गश्रीश्च वर्धताम् मङ्गलम् कोशलेन्द्राय महनीय गुणाब्धये चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् वेदवेदान्तवेद्याय मेघश्यामलमूर्तये पुंसाम् मोहनरूपाय पुण्यश्लोकाय मङ्गलम् विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः भाग्यानाम् परिपाकाय भव्यरूपाय मङ्गलम् पितृभक्ताय सततम् भ्रातृभिः सह सीतया నందితాఖిల లోకాయ రామభద్రాయ మంగళం. త్యక్త సాకేత వాసాయ చిత్రకూట విహారిణే సేవ్యాయ సర్వయమినాం ధీరోదారాయ మంగళం. సౌమిత్రిణా చ జానక్యా శాపబాణాసిధారిణే సంసేవ్యాయ సదా భక్త్యా స్వామినే మమ మంగళం. దండకారణ్య వాసాయ ఖండితామర శత్రవే గృధ్రరాజాయ భక్తాయ ముక్తిదాయాస్తు మంగళం. సాదరం శబరీ దత్త ఫలమూలాభిలాషిణే సౌలభ్య పరిపూర్ణాయ సత్వోద్రిక్తాయ మంగళం. హనువత్సమవేతాయ హరీశాభీష్టదాయినే పాళి ప్రమథనాయాస్తు మహాధీరాయ మంగళం. శ్రీమతే రఘువీరాయ సేతూల్లంగిత సింధవే జితరాక్షసరాజాయ రణధీరాయ మంగళం. ఆసాద్య నగరీం దివ్యామభిషిక్తాయ సీతయా రాజాధిరాజ రాజాయ రామభద్రాయ మంగళం. మంగళాశాసన పరైః మదాచార్య పురోగమైః సర్వైశ్చ పూర్వైరాచార్యైః సత్కృతాయాస్తు మంగళం. యన్మంగళం సహస్రాక్షే సర్వదేవ నమస్కృతే వృత్రనాశే సమభవత్ తత్తే భవతు మంగళం. యన్మంగళం సుపర్ణస్య వినతా కల్పయత్ పురా అమృతం ప్రార్థయానస్య తత్తే భవతు మంగళం. అమృతోత్పాదనే దైత్యాన్ ఘ్నతో వజ్రధరస్య యత్ అదితిర్మంగళం ప్రాదాత్ తత్తే భవతు మంగళం. త్రీన్ విక్రమాన్ ప్రక్రమతో విష్ణో రమిత తేజసః యదాసీన్ మంగళం రామ తత్తే భవతు మంగళం. ఋతవత్సాగరాద్వీపా వేదా లోకాదిశశ్చ తే మంగళాని మహాబాహో దిశంతు తవ సర్వదా. శ్రీరామచంద్రశ్రిత పారిజాతః సమస్త కళ్యాణ గుణాభిరామః. సీతాముఖాంభోరుహ సంచరీకో నిరంతరం మంగళమాతనోతు. కాయేన వాచా మనసేంద్రియైర్వా బుద్ధ్యాత్మనా వా ప్రకృతే స్వభావాత్. కరోమి యద్యత్ సకలం పరస్మై నారాయణాయేతి సమర్పయామి. ఓ